श्री गणेशाय नमः। नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। भक्तावासं स्मरिन्नित्यं मायुः कामार्थसिद्धये। प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं लम्बोदरं पञ्चमं च षष्ठं विकटमेव च नवमं बालचन्द्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननम्
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन् नरः न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो
लभते धनम्
पुत्रार्थी लभते पुत्रान्
मोक्षार्थी लभते गतिम्
जपिगणपति स्तोत्रम् षड्भिर्मासैः फलम् लभे संवत्सरेण सिद्धिम् च लभते नात्र संशयः।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः
इति श्रीनारदपुराणे सङ्कष्टनाशनम् नाम श्रीगणपतिस्तोत्रम् सम्पूर्णम्।